नारद उवाच नारायण प्रिया साध्वी कथम सा च बभूव तुलसी पुत्र संभूता का वा सा पूर्वजन्मनि कथमेताद्रशी देवी वृक्षत्वं समवापः कथं साप्यसुरग्रस्ता संबभूव तपस्विनी। श्री नारायण उवाच धर्मध्वजस्य पत्नी च माधवीति च विश्रुता रूपेण सार्धं सारामे रेमे च गन्धमादने शुभे क्षणे शुभदिने शुभयोगे च संयुते शुभलग्ने शुभांशे च शुभस्वामी ग्रहान्विते कार्तिकी पूर्णिमायां तु सितवारे च पद्मजा सुशावसा च पद्मांशा पद्मिनीता मनोहरा पीतचंपकवर्णाभा सुंदरी श्वेव सुंदरी नरा नार्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः तेन नाम्ना च तुलसी तां वदन्ति मनीषिण सा च भूयिष्ठमानेन योग्यस्त्री प्रकृतिर्यथा सर्वे निषिद्धा तपसे जगाम बदरीवनम् तत्र देवा प्रदक्षं च चकार परमं तप निर्लक्षा चैकपादस्था दृष्ट्वा तां कमलोद्भवः समाययौ वरं दातुं परं बदरिकाश्रमम्। ब्रह्मोवाच वरं वृणीष्व तुलसी यत्ते मनसि वांछितम् हरिभक्तिं हरेर्दास्यम् अजरामरतामपि। तुलसी उवाच
अहं नारायणं कांतं शांतं सुंदरविग्रहं सांप्रतं तं पतिं लब्धुं वरये त्वं च देहि मे।
ब्रह्मदेव उवाच सुदामानाम गोपश्च श्रीकृष्णांगसमुद्भव तदंशश्चातितेजस्वी लेभे जन्म च भारते शंखचूडेति विख्यात स्त्रैलोक्येन च तत्समः अधुना तस्य पत्नी त्वं संभविष्यसि शोभने पश्चान्नारायणं शांतं कांतमेव वरिष्यसि शापान्नारायणस्यैव कलया दैवयोगतः भविष्यसि वृक्षरूपा त्वं पूता विश्वपावनी प्रधाना सर्वपुष्पेषु विष्णुप्राणाधिका भवे।
नारायण उवाच
शंखचूडो महायोगी जैगीषव्यान् मनोहरम् आज्ञया ब्रह्मण सोऽपि बदरीं च समाययौ।
शङ्खचूड उवाच
कात्वं मानिनि कल्याणि सर्वकल्याणदायिनि भूमि भूते किं करे मां सम्भाषं कुरु सुन्दरी
तुलसी उवाच
धर्मध्वज सुताहं च तपस्यां तपोवने तपस्विन्यहं तिष्ठामि कस्त्वं गच्छ यथा सुखं कामिनीं कुलजातां च रहस्ये काकिनं सतीं न पृच्छति कुले जात इत्येवं मे श्रुतौ श्रुतम्
गच्छामि त्वत्समीपम् आज्ञया ब्रह्मणो धुना गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने
श्रीनारायण उवाच
गान्धर्वेण विवाहेन जगृहे तां च दानवः स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूवः एकमन्वन्तरं पूर्णं राजराजेश्वरो महान् देवानामसुराणां च दानवानां च सन्ततं गन्धर्वाणां किन्नराणां राक्षसानां च शान्तिदः हिताधिकारा देवाः चरन्ति भिक्षुकायथा ब्रह्मा शिवश्च तैः सार्धं वैकुण्ठं च जगामः दुर्लभं परमं धाम जरामृत्युहरं परम्
श्री भगवान उवाच
सुदामानाम गोपश्च पार्षद प्रवरो मम सप्राप दान विनोनिं राधाशापात् सुदारुणा तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च सतुष्टा सा उदति कृपया पुनः आयास्यति क्षणार्धेन कृत्वा शापस्य पालनं सुदामस्त्वमिहागच्छेत्युक्त्वा सा च निवारिता सदित्वहानिस्तत्पत्न्या यत्र काले भविष्यति तत्रैव काले तन्मृत्यु इति दत्तो वरस्त्वया
श्री नारायण उवाच
भूतं कृत्वा चित्ररथं गन्धर्वेश्वरमीप्सितं शीघ्रं प्रस्थापयामास शङ्खचूडान्तिकं मुदा गत्वा सौभ्यन्तरं द्वारं द्वारपालम् उवाचः रणस्य सर्ववृत्तान्तं विज्ञापयत माचिरम्
पुष्पदन्त उवाच
राजेन्द्रशिवभृत्योऽहं पुष्पदन्ताभिध प्रभो राज्यं देहि च देवानाम् अधिकारं च साम्प्रतं पुष्पभद्रा नदीतीरे वटमूले त्रिलोचनः विषयं देहि तेषां च युद्धं वा कुरु निश्चितं भूतस्य वचनं श्रुत्वा
शङ्खचूड प्रहस्य च प्रभातेऽहं गमिष्यामि त्वं च गच्छेत्युवाचः अथ दूते गते तत्र शङ्खचूड प्रतापवान् उवाच तुलसीं वातां गत्वाभ्यन्तरमेव च रणवार्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका उवाच मधुरं साध्वी हृदयेन विनूयता तुलस्युवाच
हे प्राणबन्धो हे नाथ तिष्ठ मे वक्षसि क्षणम् हे प्राणाधिष्ठातृदेव रक्ष मे जीवितं क्षणम् भूक्ष्व जन्म समासाद्य यन्मे मनसि वाञ्छितम् पश्यामि त्वां क्षणम् किञ्चित् लोचनाभ्यां च सादरम् आन्दोलयन्ति प्राणा मे मनोदग्धं च सन्ततम् दुःस्वप्नश्च मया दृष्टः चाद्यैव चरमे निशि
शङ्खचूडवाच कालेन योजितं सर्वम् कर्म भोग निबन्धनम् शुभम् हर्षम् सुखम् दुःखम् भयम् शोकश्च मङ्गलम् जनम् जनेन जनिता जनम् पाति जनेन यः जनम् जनेन हरते तम् देवम् भज साम्प्रतम् हर्तारं च संहर्तुः तं देवं शरणं व्रज को वा बन्धुश्च केषां वा सर्वबन्धुं भज प्रिये अहं को वा च त्वं का वा विधिना योजितः पुरा त्वया सार्धं कर्मणा च पुनस्तेन वियोजितः
श्रीनारायण उवाच
कृता सेना परिमिता दानवेन्द्रेण नारद तस्यां सेनापतिश्चैव युद्धशास्त्रविशारद पुष्पभद्रा नदीतीरे यत्राक्षयवटः शुभः तत्र गत्वा शङ्खचूडो ददर्श चन्द्रशेखरम्
महादेव उवाच
देहि राज्यं च देवानां मत्प्रीतिं रक्ष भूमिप सुखं स्वराज्ये त्वं तिष्ठ देवा तिष्ठन्तु वै पदे ज्ञातिद्रोहस्य पापानि कलां नार्हन्ति षोडशी स्वसम्पदां च हानिं च यदि राजेन्द्र मन्यसे
शङ्खचूड उवाच
द्रोहे महत्पापं त्वयोक्त मधुना च यत् देवदानवयोर्वादः शाश्वन्नैमित्तिकः सदा
महादेव उवाच
देहि राज्यं च देवानां इति मे निश्चितं वचः युद्धं वा कुरु मत्सार्धं वाग्व्यये किं प्रयोजनम्
श्री नारायण उवाच
शिव दानवयोरुद्धं पूर्णमब्दशतं पुरा नवभूव पुरन्योन्यं ब्रह्मञ्जय पराजयो एतस्मिन्नन्तरे वृद्ध ब्राह्मण परमातुरः आगत्य चरणस्थानम् उवाच दानवेश्वरम्
वृद्ध ब्राह्मण उवाच
देहि भिक्षां च राजेन्द्र मह्यं विप्राय साम्प्रतम् त्वं सर्वसंपदां दाता यन्मे मनसि वाञ्छितम् ओमित्युवाच राजेन्द्रः प्रसन्नवदने क्षणः कवचार्थी जनश्चाहम् इत्युत्वाचाति मायया तच्छ्रुत्वा कवचं दिव्यम् जग्राह हरिरेव च शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति
श्रीनारायण उवाच
नारायणश्च भगवान् देवानां साधनेषु च शङ्खचूडस्य कवचम् गृहीत्वा विष्णुमायया पुनर्विधाय तद्रूपं जगाम तत्सति गृहं पातिव्रत्यस्य नाशेन शङ्खचूडजिहांसया कुन्दुभिम्बादयामास तुलसीद्वारसन्निधौ जय शब्दं च तद्वारे बोधयामास सुन्दरीं दृष्ट्वा च पुरतः कान्तं सा तं कान्तं मुदाम्बिता तत्पादं क्षालयामास न नाम चरुरोदच अद्य मे सफलं जन्म जीवनं च बभूवः रणे गतं च प्राणेशं पश्यन्ताश्च पुनर्भुवे सस्मिता सकटाक्षं च सकामा पुलकाङ्किता प्रपच्छ रणवृत्तान्तं कान्तं मधुरया गिरा
तुलसुवाच
असंख्य विश्व संहर्ता सार्धमाजौ तव प्रभो कथं बभूव विजयः तन्मे भूहि कृपानिधे
श्री भगवान उवाच
आवयो समर कांते पूर्णमब्दं बभूवः नाशो बभूव सर्वेषां दानवानां च कामिनी रेमे रमापतिस्तत्र रामया सह नारद सा साधिं सुखसंभोगात् आकर्षणं व्यतिक्रमात्
सुवाच
को वा त्वं वद मायेश भुक्ताहं मायया त्वया दूरीकृतं मत्सति त्वं यदस्त्वं शपामिह छलेन धर्मभंगेन मम स्वामी त्वया हतः पाषाण हृदय दयाहीनो यत प्रभो तस्मात् पाषाणरूपस्त्वं भवेद् साधु त्वां ते भ्रांता हि न संशयः भक्तो विना पराधेन पराठे च कथं हतः भृशं रुरोध शोकार्ता विललाप मुहुर्मुहु
श्री भगवान वाच
तपस्त्वया कृतं भद्रे मदर्थे भारते चिरम् त्वदर्थे शङ्खचूडश्च चकार सुचिरं तपः कृत्वा त्वां कामिनीं सोऽपि विजहार च तत्क्षणात् अधुना दातुमुचितं तवैव तपसः फलम् इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च रामे रम मया सार्धं त्वं रमा सदृशी भव इयं तनूर्दधिरूपा गण्डकीति विश्रुता भूता सुपुण्यदा नृणाम् भवतु भारते तव केशसमूहश्च पुण्यवृक्षो भविष्यति तुलसी केशसम्भूता तुलसीति विश्रुता त्रिषु लोकेषु पुष्पाणां पत्राणां देवपूजने प्रधानरूपा तुलसी भविष्यति वरानने स्वर्गे मर्त्ये च पाताले गोलोके मम सन्निधौ भवत्वं तुलसी वृक्ष वरापुष्पेषु सुन्दरी त्वं च स्वयं महासाध्वी वैकुण्ठे मम सन्निधौ रमा समा च रामा च भविष्यसि न संशयः अहं च शैलरूपेण गण्डकीतीरसन्निधौ अधिष्ठानं करिष्यामि भारते तव शापतः